इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य नवदिल्लीनगरे ऐषमः सेमिकॉन इण्डिया इत्यस्य सीईओ गोलोत्पीठिका समारोहे भागं गृहीष्यति। भारतस्य सेमीकंडक्टर पारिस्थितिकी तन्त्रस्य तस्य विकासस्य च विषये चर्चां कर्तुं उद्यमनेतारः अस्मिन् समारोहे एकत्रिताः भविष्यन्ति। गोलोत्पीठिका समारोहे श्रीमोदी विश्वस्य मुख्य कार्यकारिभिः सह संवादं करिष्यति। अवधेयं यत् ह्यः एव श्रीमोदिना नवदिल्ल्याः यशोभूम्यां त्रिदिवसीयस्य ऐषमः सेमिकॉन इण्डिया इत्यस्य सम्मेलनस्य उद्घाटनं कृतम्। अस्य सम्मेलनस्य उद्देश्यं वैश्विक सेमीकंडक्टर आपूर्ति श्रृंखलायां विश्वसनीय सहभागिरूपेण भारतस्य स्थापनमस्ति। अस्मिन् अवसरे प्रधानमन्त्री श्रीनरेन्द्रमोदी प्रोक्तवान् यत् विश्वं भारते विश्वसिति, सहैव भारतेन सह सेमीकंडक्टर क्षेत्रे भविष्य निर्माणार्थमपि औत्सुक्यम् आवहति। श्रीमोदिना प्रोक्तं यत् तद्दिनं नातिदूरम् यदा भारतस्य लघुतम चिप्स यन्त्रं जगति महत् परिवर्तनम् आनेष्यति।
भारत बैकेंड से निकलकर एक फुल स्टैक सेमीकंडक्टर नेशन बनने की ओर बढ़ रहा है। वो दिन दूर नहीं है जब भारत की सबसे छोटी चिप दुनिया के सबसे बड़े चेंज को ड्राइव करेगी। ऑफ कोर्स आवर जर्नी बिगेन लेट बट नथिंग कैन स्टॉप अस नाउ।
भारतस्य सेमीकंडक्टर यात्रा ऐतिहासिकं स्तरं प्राप्ता वर्तते यतः पायलट लाइन इत्यतः मेड इन इंडिया चिप्स इत्यस्य प्रथमः समूहः प्रधानमन्त्री नरेन्द्र मोदिने समर्पितः। इलेक्ट्रॉनिक्स तथा सूचना प्रौद्योगिकी मंत्री अश्विनी वैष्णवः ह्यः नवदिल्लीनगरे ऐषमः सेमिकॉन इण्डिया इत्यस्य समारोहस्य प्रथमदिने प्रधानमन्त्रिणे एतानि चिप्स संयन्त्राणि प्रदत्तवान्। श्री अश्विनी वैष्णवः कार्यक्रमं सम्बोधयन् प्रोक्तवान् यत् भारतेन सेमीकंडक्टर अभियानस्य आरम्भानन्तरं सम्पूर्णविश्वं विश्वासेन सह भारतम् अवलोकते। जीएसटी परिषदः षट्पञ्चाशत्तमा संगोष्ठी नवदिल्ल्याम् अद्यारभ्य आयोज्यते। केन्द्रीय वित्तमन्त्री निर्मला सीतारामन्वर्या अस्याः द्विदिवसीय सभायाः अध्यक्षतां करिष्यति। इयं परिषद् भारतस्य अग्रिम वंशश्रेणिक जीएसटी परिष्कार विषये विचारं करिष्यति, यत्र आयकरमूल्यस्य युक्तीकरणं अनुपालनस्य सरलीकरणञ्च समाविष्टमस्ति। अवधेयं वर्तते यत् इतः पूर्वं प्रधानमन्त्री श्रीनरेन्द्रमोदी अस्मिन् वर्षे स्वातन्त्र्यदिवसस्य सम्बोधने वस्तुसेवाकरेण राष्ट्रस्य कथं लाभः अभवत् इति प्रकाशितवान् आसीत्। श्रीमोदी जीएसटी अन्तर्गतम् अग्रिमवंशश्रेणिकपरिष्कारस्य महत्वं बोधितवान् आसीत्, येन सामान्यजनस्य कृते आयकरेषु न्यूनता वा भविष्यति। केन्द्रीय वित्तनिगम कार्याणां च मन्त्री निर्मला सीतारामन् ह्यः नवदिल्लीनगरे सिंगापुरस्य प्रधानमन्त्री लॉरेंस वोंग इत्यनेन सह मिलित्वा चर्चां कृतवती। चर्चाः व्यापारस्य, निवेशस्य, फिनटेक कौशलविकासस्य, स्थायित्वस्य, स्वास्थ्यसेवायाः, सम्पर्कस्य च प्रमुखक्षेत्रेषु व्यापकरणनीतिकसहयोगस्य सुदृढीकरणे केन्द्रीकृताः आसन्। संगोष्ठ्यामस्यां द्वयोः पक्षयोः एतेषु उपर्युक्तक्षेत्रेषु सहकार्यम् अधिकं गभीरं कर्तुं सहमतिः अभवत्। सिंगापुरस्य प्रधानमन्त्री लॉरेंस वोंगः प्रधानमन्त्री नरेन्द्रमोदिनः आमन्त्रणेन भारतस्य त्रिदिवसीय यात्रायां वर्तते। श्वः द्वयोः नेतारयोः द्विपक्षीय विमर्शः निश्चितः वर्तते। अवसरेऽस्मिन् सिंगापुरस्य प्रधानमन्त्री राष्ट्रपति द्रौपदी मुर्मुना सह अपि मेलिष्यति। मार्ग परिवहन राजमार्ग मन्त्री नितिन गडकरी इत्यनेन उक्तं यत् प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना 70+ 2000 वर्षपर्यन्तं भारतं कार्बन तटस्थं देशं कर्तुं लक्ष्यं निर्धारितम् अस्ति। नवदिल्लीनगरे 20 वैश्विक स्थायित्व शिखर सम्मेलनं सम्बोधयन् गडकरी महोदयः अवदत् यत् जलवायु परिवर्तनं भविष्यस्य कृते बहुमारकं वर्तते इति वार्ताः।